ओम नमो भगवते वासुदेवाय। अथ चतुर्थोऽध्यायः। राजोवाच, देवासुरनृणां सर्गो नागानां मृगपक्षिणां। सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेन्तरे तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा अनुसर्गं यया शक्त्या ससर्ज भगवान् परः। सूत उवाच इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः प्रतिनन्द्य महायोगी जगादमुनिसत्तमाः। श्रीशुक उवाच यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः मुखतो वायुमग्निम् च ससृजुस्तद्दिदक्षया ताभ्याम् निर्दयमानांस्तानुपलभ्य कुरुद्वः। राजोवाच महान् सोमो मन्युम् प्रशमयन्निव मा द्रुमेभ्यो महाभागादीनेभ्यो द्रोक्तुमर्हथ। विवर्धयशवो यूयम् प्रजानाम् पतयः स्मृताः अहो प्रजापतिपतिर्भगवान् हरिरव्ययः वनस्पतीनोषधीश्च ससर्जोर्जमिषम् विभुः अन्नम् चराणामचराय पदपादचारिणाम् अहस्ताहस्तयुक्तानाम् द्विपदाम् च चतुष्पदः। यूयम् च पिद्रान् वादिष्टा देवदेवेन चानघाः प्रजासर्गाय हि कथम् वृक्षान् निर्दग्धुमर्हथ। आतिष्ठत सताम् मार्गम् कोपम् यच्छत दीपितम् पित्रा पितामहेनापि जुष्टम् वः प्रपितामहैः। तोकानाम् पितरौ बन्धू दृशः पक्ष्मस्त्रिया पतिः पतिप्रजानाम् भिक्षूणाम् गृह्यज्ञानाम् बुधः सुहृत् अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वरः सर्वम् तद्धिष्ण्यमीक्षध्वमेवम् वस्तोषितोऽयसौ। यः समुत्पतितम् देह आकाशान्मन्युमुल्बणम् आत्मजिज्ञासया यच्छेत् स गुणानतिवर्तते। अलम् दग्धैर्द्रुमैर्दीनैखिलानाम् शिवमस्तु वः वार्क्षी एषा वरा कन्या पत्नी त्वे प्रतिगृह्यताम् इत्यामन्त्र्य वरारोहाम् कन्यामाप्सरसीम् नृप। सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे तेभ्यस्तस्याम् समभवद्दक्षः प्राचेतसः किल यस्य प्रजाविसर्गेण लोकाः पूरिताश्रयः यथा ससर्ज भूतानि दक्षो दुहित्रिवत्सलः। रेतसा मनसा चैव तन्ममा वहितशृणु मनसैवासृजत्पूर्वम् प्रजापतिरिमाः प्रजाः देवासुरमनुष्यादीन्नभस्थलजलौकसः। समब्रह्मितमालोक्य प्रजासर्गम् प्रजापतिः विन्ध्यपादानुपव्रज्य सोचरद्दुष्करम् तपः तत्राघमर्षणम् नाम तीर्थम् पापहरम् परम् उपस्पृश्यानुसवनम् तपसा तोषयद्धरिम् अस्तौ सिद्धं सगुह्येन भगवन्तमधोक्षजम् तुभ्यम् तदपि धास्यामि कस्या तुष्यद्यतो हरिः। प्रजापतिरुवाच नमः पराया वितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर्निवृत्तमानाय तथे स्वयम्भुवे। न यस्य सख्यम् पुरुषो वैति सख्युः सखा वसन् संवसतः पुरेऽस्मिन् गुणो यथा गुणिनो व्यक्तदृष्टेस्तस्मै महेशाय नमस्करोमि। देहो सवोक्षा मनवो भूतमात्रा नात्मानमन्यम् च विदुः परम् यत् सर्वम् पुमान् वेदगुणांश्चितज्ञो न वेद सर्वज्ञमनन्तमीडे। यदोपरामो मनसो नाम रूपस्य दृष्टस्मृतिसम्प्रमोषात् य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसत्मने नमः। मनीषिणोऽन्तर्हृदि सन्निवेशितम् स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः वह्निम् यथा दारुणि पाञ्चदश्यम् मनीषया निष्कर्षन्ति गूढम्। स वै ममाशेष विशेषमाया निषेध निर्वाणसुखानुभूतिः स सर्वनामा स च विश्वरूपः प्रसिद्धतामनिरुक्तात्मशक्तिः। यद्यन्निरुक्तम् वचसा निरूपितम् धियाक्षभिर्वा मनसा वोतयस्य मा भूत्स्वरूपम् गुणरूपम् हि तत्तत् स वै गुणापाय विसर्गलक्षणः। यस्मिन् यतो ये न च यस्य यस्मै यद्यो यथा कुरुते कार्यते च परावरेषाम् परमम् प्राक्प्रसिद्धम् तद्ब्रह्म तद्धेतुरन्यदेकम्। यच्छक्तयो वदताम् वादिनाम् वै विवादसंवादभुवो भवन्ति कुर्वन्ति चैषाम् मुहुरात्ममोहम् तस्मै नमोऽनन्तगुणाय भूम्ने। अस्तीति नास्तीति च वस्तुनिष्ठयोरेकस्थयोर्भिन्नविरुद्धधर्मयोः अवेक्षितम् किञ्चन योगसाङ्ख्ययोः समम् परम् यनुकूलम् बृहत्तत्। योऽनुग्रहार्थम् भजताम् पादमूलमनामरूपो भगवानन्तः नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यम् परमप्रसीदतु। यः प्राकृतैर्ज्ञानपथैर्जनानाम् यथाशयम् देहगतो विभाति यथा निलः पार्थिवमाश्रितो गुणम् स ईश्वरो मे कुरुतान्मनोरथम्। श्रीशुक उवाच इति स्तुता संस्तुवत स तस्मिन्नघमर्षणे आविरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः कृतपादस्तुपर्णांसे प्रलम्बाष्टमहाभुजः चक्रशङ्खासि चर्मेषु धनुपाशगदाधरः पीतवासा घनश्यामः प्रसन्नवदने क्षणः वनमाला निवीताङ्गोलसत्रीवत्सकौस्तुभः महाकिरीटकटकः स्फुरन्मकरकुण्डलः काञ्च्यङ्गुलीयवलय नूपुराङ्गदभूषितः त्रैलोक्यमोहनम् रूपम् बिभ्रत्त्रिभुवनेश्वरः वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः रूपम् तन्महदाश्चर्यम् विचक्ष्यागतसाध्वसः न नामदण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः न किञ्चनोदीरयितुमशकत्तीव्रया मुदा आपूरितमनोद्वारैर्हृदिन्य इव निर्झरैः तम् तथा वनतम् भक्तम् प्रजाकामम् प्रजापतिम् चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः श्रीभगवानुवाच प्राचेतसमहाभाग संसिद्धस्तपसा भवान् यच्छ्रद्धया मत्परया मयि भावम् परम् गतः प्रीतोऽहम् ते प्रजानाथ यत्ते स्योद्ब्रह्मणम् तपः ममैष कामो भूतानाम् यद्भूयासुर्विभूतयः ब्रह्मा भवो भवन्तश्च मनवो विभुतेश्वराः विभूतयो ममय्येता भूतानाम् भूतिहेतवः तपो मे हृदयम् ब्रह्मन् स्तनुर्विद्या क्रियाकृतिः अङ्गानि क्रतवो जाता धर्म आत्मा सवस्तुराः अहमेवासमेवाग्रे नान्यत् किञ्चान्तरम् बहिः संज्ञानमात्रमव्यक्तम् प्रसुप्तमिव विश्वतः मयि अनन्तगुणेऽनन्ते गुणतो गुणविग्रहः यदासीत् तत एवाद्यः स्वयम्भू समभूतजः स वै यदा महादेवो मम वीर्योपब्रह्मितः मेनेऽखिलमिवात्मानमुद्यतः सर्गकर्मणि अथ मेऽपि हितो देवस्तपोतप्यत दारुणम् नवविश्वसृजो युष्मान् येनादावसृजद्विभुः एषा पञ्चजनस्याङ्गदुहिता वै प्रजापतेः असिक्नी नाम पत्नीत्वे प्रदेश प्रतिगृह्यताम् मिथुनव्यवाय धर्मस्त्वम् प्रजासर्गमिमम् पुनः मिथुनव्यवाय धर्मिण्याम् भूरिशो भावयिष्यसि त्वत्तोधस्तात् प्रजा सर्वा मिथुनीभूय मायया मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् श्रीशुक उवाच इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठस्कन्धे चतुर्थोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।